हरिः ॐ ज्ञातवेदसे सुरवामसो ममराति यतो निदहाति वेदः कनः पर्षदति दुर्गाणि विश्वानावेव सिन्धुम् दुरितात्यग्निः कामद्विवर्णान् तपसा ज्वलन्तीम् वैरोचनीम् कर्मफलेषु जुष्टा दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये सुतरधितरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पोश्च पृथ्वी बहुला न उर्वे भवातोकाय तनयाय शय्योः विश्वादिनो दुर्गः जातवेदस्तिन्धुन्ननावादुरितातिपर्षि अग्ने अत्रिवन्मनसा गृणानोऽस्माकम् वोद्यविता तनूनाम् ऋतनाजितगम् सहमानमुग्रमग्निगम् हुवेम परमात्सदस्तात् सर्पर्षदति दुर्गाणि विश्वाक्षामद्देवो अतिदुरितात्यग्निः तत्नोषिकमेढ्यो अध्वरेषु सदार्थ्यहोतानव्यश्च सत्ति स्वाञ्चाग्ने तनुवम् पित्रय स्वास्मभ्यम् च सौभगमायजस्व गोभिर्जुष्टमयुजो निषिक्तन्तवेन्द्रविष्णोरनुसञ्चरेम नाकस्य पृष्टमभि संवता नो वैष्णवीम् लोक इवमादयन्त ॐ कात्यायनाय विद्महे कन्याकुमारि धीमहि तन्नो दुर्गि प्रचोदयात्।